वाजिनीवते धीनामभित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमञ्जव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः जात इषुः शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृळया जाते रुद्र शिवा तनूरघोरा पापकाशिने तया नस्तनुभाषन्तमया गिरिशम् ताभिचाकशेः यामिषुम् गिरिशम् तहस्ते विभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहिकुंसि पुरुषम् जगत शिवे नवचसा त्वा गिरिशार्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असदा अध्यवोचदधि भक्ता प्रथमो दैव्योऽभिषक अहेकश्च सर्वाजम्भय सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्र अभितो दिक्षुश्रितात् सहस्रशो वैशागुम् हेळ ईमहे असव्यो वसर्वदिनीलग्रीवो विलोहितः उतैनम् गोपा अधिषण्ण धृषण्णुदहार्चः उतैनम् विश्वाभूतानि स दृष्टो मृळयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य तत्त्वानोऽहन्तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्नियोर्जा याश्च ते हस्त इषभ पराता भगवो वप अवतद्यधनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानामुखा शिवो न सुमना भव विज्जम् धनुः कपर्दिनो विशल्यो बाणवागुम् हुता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तया स्वान्विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्विणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे देहान्ये दिशाम् च पदये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय त्विषेमते पथीनाम् पतये नमो नमो बभ्रुषाय विव्याधिनेन्नाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राजातताविने क्षेत्राणाम् पतये नमो नमः सूताया हन्यायवनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषायात् क्रन्दयते पत्रीणाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिने सेनानाम् पतये नमो नमो निषङ्गिन इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिघागुम् सद्भ्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो दन्वाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो वृषजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः सपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपदिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविद्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगंहतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपदिभ्यश्च वो नमो नमो भ्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपदिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो दन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वैशेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्द्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्विने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णे च वे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः कार्त्याय च नीप्याय च नमः सूत्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कोल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रभाष्याय च नमः इरिञ्जाय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुनस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्प्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हृत्याय च नमो लोप्याय चोलप्याय च नमः ऊर्प्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो भगुरमालाय च विघ्नते च नमः आखिदते च ప్రక్షిదతే చ నమో వకిరికేభ్యో దేవానోగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆ నిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధసస్పదే దరి దన్నీలలోహితా ఏషాం పురుషానామేషాం పశూనాం మా భేర్మా రోమో ఏషాం కించనామత జాతే రుద్ర శివా తరు శివ విశ్వాహ భేషజీ శివ రుద్రస్య భేషజీ తయానో మృడ జీవసే ఇమాకుం రుద్రాయ తవసే కపర్దినే క్షయత్వేరాయ ప్రభరామహే మతిం యథా నశ్యమ సద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్న నాతురం మృడానో రుద్రోతనో మయస్కృతి క్షయత్వేరాయ నమసా విధేమతే యచ్చం చయోచ్చ మనురాయ జే పితా తదశ్యామతవ రుద్ర ప్రణీతో మానో మహాంతభూతమానో అర్భకం బాణ ఉక్షంతభూతమాన ఉక్షితం మానో వరే పితరం మోద మాతర ప్రియామానస్తనువో రుద్రరీర్షః మానస్తోకేతన ఏ మాన ఆయుషి మానో కోషు మానో అశ్వేషురీర్షః వీరాన్మానో రుద్రభామితోపధీర్హవిష్మంతో నమసా విధేమతే ఆరాతే గోగ్న హుత పూరుషజ్ఞే క్షయత్వేరాయ సున్నమస్మేతే అస్తు రక్షా చ నో అధి చ దేవ బ్రూషధా చ న శర్వయచ్చ ద్విమర్హా స్తుహి శ్రుతం గర్థ సదయ్యుపాణం మృగన్న భీమముపహత్తుముగ్రం మృడా చరిత్రే రుద్ధస్తపానో అన్యందే అస్మన్నివ బంతు సేనా పరిణో రుద్రస్య హేతిర్వృణక్తు పరిత్వేషస్య దుర్మతిరఘాయో అవస్థిరామఘవద్భ్యస్తనుష్మేడ్వస్తోకాయతనయాయ మృడయా మీడుష్టమ శివతమ శివో న సుమనాభవా పరమే వృక్ష ఆయుధం నిధాయ కృత్తింబసాన ఆచర పిడాకం బిభ్రదాగహి వికిరిడ విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతుతాః సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతి సహస్రాణి సహస్రశో యే రుద్ర అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వాని తన్వసే అస్మిన్మహత్యర్ణవేంతరిక్షే భవ అధి నీలగ్రీవాశితికంఠా శర్వ అధః క్షమాచరాః నీలగ్రీవాశితికంఠాదివకుం రుద్ర ఉపశ్రుతాః యే వృక్షేషు సస్మింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసక్కపర్దినః యే అన్యేషు వివిధ్యంతి పాత్రేషు పిపతో జనాన యే పథాం ప్రతిరక్షయ ఐలభృదాయ వ్యుధః యే తీర్థాని ప్రచరంతి శుకావంతో నిషంగినః జహేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయో జనే వదన్వాని తన్మసి నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యే శామన్నం वातो वरुषमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणादश प्रतिचीर्धशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेजम् द्विष्वो यश्च नो द्वेष्ठितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशो मृत्योर्मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येना आप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तवष्टु हि यस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देववसुरम् नुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेश जोऽयम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ शञ्च मे मयश्च मे प्रियम् च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे महश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सूश्च मे प्रसूश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सूषा च मे सुदिनम् च मे
शान्तिः ॐ
आसत्येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् अग्निम् धूतम् प्रणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुत च द्विपदा निष्क्रीतोऽयम् यज्ञेयम् भागमेतु राजस्पोषा यजमानस्य सन्तु ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्ट्ययम् भवावाचस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमिवाय सलिलानि तक्षत्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषे सहस्राक्षर परमेव्योमन्न
ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धा दिवः ककुप्पते पृथिव्या अजम् अपागुम् रेतागुंसि जिन्वते स्योना पृथिविभवा नृक्षरा निवेशने यच्छानः सर्वसप्रथाः क्षेत्रस्य पतिना वयगुम् हिते नेव जयामसि गावश्वम् पोषयित्वा सनो मृडा त्रीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्बुद्ध्य स्वाग्ने प्रतिजागृह्येण विष्टा पूर्ते सगुं सृजेता भयम् च पुनः कृण्वग्गुस्त्वा पितरम् युवानमन्वातागुंसि त्वयितन्तुमेतम् इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुंसुरे विष्णोरराटमसि विष्णो पृष्ठमसि विष्णो श्रत्रे स्थो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियदर्यो अर्हा द्युमद्विभाति क्रतुमज्जनेषु यद्दीद यच्चवसर्त प्रजात तदस्मासु द्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथा शार्याते अपि वस्सु तस्य तव प्रणीति तव शूरशर्मन्नाभिवासन्ति कवयस्सु यज्ञाः ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद्वितीमतः सुरुचो वेन आवह स बुद्धिया उपमा अस्य विष्ठा सतश्च यो निमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवः शुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यो दैव्यानि मानुषा जनूगुम् शन्तर्विश्वानि विद्मना जिगाति इन्द्राणि मासुनारिषु सुपत्नीमहमश्रवम् न ह्यस्या अपरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतस्परिहवाहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवेरभिष्टय आपो भवन्तु पीतये संयोरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्तावास्ते जुहुमत्तन्नो अस्तु वयग्गस्यामपतयोरयीरा इमम् यमप्रस्तरमाहिसीदाङ्गिरोभिः पितृभिः संविदानः आ त्वामन्त्रा कविशस्तावहन्त्वेनाराजन् हविषामादयस्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॐ गयानश्चित्र आभुवदूते सदा वृथः सखा कया शचिष्ठया भृता आयङ्गौ पृष्णिरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निररुतिरा भवन्धदामग्रीवा स्वविचत्यम् इदम् ते तद्विश्याम्यायुषो न मध्या ददा जीवः पितुमद्धि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः
ॐ केतुं कृण्वन्न केतवेपेशो मर्या अपेशसे समुषद्भिरजायथा ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् शेनो गृध्राणागुस्वधितिर्वना नागुस्सोम पवित्रमत्येतिरेभन्न सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिगृणते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमद्याम् हस्तिनालप्रमोदिने श्रियम् देवीमुपक्वये श्रीर्मा देवी जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभाताम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् ऋणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मनिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्ध्यम् दधातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वानिर्णुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करीषिणी ईश्वरीकम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहे पशूनाम् रूपमन्नस्य महिश्रेश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धानि चिक्लेतव समे गृहे निज देवे मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः आर्द्राम् यक्करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः महावह जात वेदो लक्ष्मी मनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यश्चित् प्रयतो भूत्वा जुहुयासाज्यमन्वहम् त्रयः पञ्चदशत्यम् च श्रीकामः सततम् जपेत् पद्मानने पद्म ऊरु पद्माक्षे पद्म संभवे त्वं माम् भजस्व पद्माक्षे येन सौख्यम् लभाम्यहम् अश्वदाये गोदाये धनदाये महाधने धनम् मे जुषताम् देवीम् सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवे रथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्योधनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैणते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा वर्षन्तु देविभावरे दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्म विशोचहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्व यासा पद्मासनस्था विपुलकटितटे पद्मपत्रायताक्षे गम्भीरावर्तनाभिः तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिघनखचितैः स्नापिता हेमकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् दासे भूतसमस्तदेववनिताम् लोकैकदीपाम् गुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् ताम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती श्रीर्लक्ष्मीर्वरलक्ष्मी च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्राम् करैर्वहन्तीम् कमलासनस्थाम् बालार्ककोटिप्रतिभाम् त्रिनेत्राम् वजेऽहमम्बाम् जगदीश्वरीम् त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवे नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णे विश्रुणुयाम देवाः
భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగైస్తుష్టుభాగుంసస్తనూభిః వ్యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తార్క్ష్యో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు. ఓం శాంతి శాంతి శాంతిః. అదో యద్బ్రహ్మ విలభం పితృణాం చ యమస్య చ వరుణస్యాశ్వినో రగ్నే మరుతాం చ విహాయసా కామ ప్రయవణం మే అస్తు సఖ్యేవాస్మి సనాతనః. ఇతి నాగో బ్రహ్మశ్రవో రాయోధనం పుత్రానాపో దేవీ రిహాహిత విశేష్ణీం గ్రద్ధశేష్ణీం చ అపేతో నిరరుతిగుంహతః పరిబాధగ్గుశ్వేతకుక్షం నిజంగగుం శఫలోదరం సతాన్వాచ్యాయయా సహ అగ్నేనాశయ సందృశః ఈర్ష్యాసూయే బుభుక్షా మన్యుం కృత్యాం చ దీధిరే రథేన కిగుం శుకావత అగ్నేనాశయ సందృశః పర్జన్యాయ ప్రగాయత దివస్పుత్రాయ మీఢుషే సనో యవసమిచ్ఛతు. ఇదం వచ పర్జన్యాయ స్వరాజే హృదో అస్త్వంతరంతద్యుయోజ మయో భూర్వాతో విశ్వకృష్టయస్వం త్వస్మే సుపిప్పలా ఓషధీర్దేవగోపాః యో గర్భమోషధీనాం గవాం కృణోత్యర్పతాం పర్జన్యపురుషేణాం పునర్మామైత్వింద్రియం పునరాయుర్పునర్భగః పునర్బ్రాహ్మణమైతు మా పునర్ద్రవిణమైతు మా యన్మేద్యరేత పృథివీమస్కాన్ యదోషధీరప్యసరద్యదాపః ఇదం తత్పునరాదజే దీర్ఘాయుత్వాయవర్చసే యన్మేరేత ప్రతిచ్యతే యన్మ ఆజాయతే పునః తేన మామమృతం కురు తేన సుప్రజసం కురు. అద్భ్యత్తిరోధాజాయత తవ వై శ్రవణః సదా తిరోధేహి సపత్నాన్నః ఏ అపోష్ణంతి కేచన త్వాం స్త్రీ మాయాం వై శ్రవణః రథగుం సహస్రవంధురం పురుషశచక్రగుం సహస్రాశ్వం ఆస్తాయాయాహి నో బలిం యస్మై భూతాని బలిమావహంతి ధనం గావో హస్తి హిరణ్యమశ్వాన్ స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహీ మహిషా గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు. समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।